ॐ श्री दुर्गायै नमः। श्री दुर्गा सप्तशती अथ षष्ठोऽध्यायः। ध्यानम् ॐ नागाधीश्वर विष्टरां फणिफणोत् तंसोरुद्रत्नावली भास्वद्देहलतां दिवाकरनिभान् नेत्रत्रयोद्भासितां मालाकुम्भकपालनीरजकराय चन्द्रार्धचूडां परां सर्वज्ञेश्वर भैरवाङ्कनिलयां पद्मावती चिन्तये। ॐ ऋषिरुवाच इत्याकर्ण्यवचो देव्या सदूतो मर्षपूरितः समाचष्ट समागम्य दैत्यराजाय विस्तरात् तस्य दूतस्य तद्वाक्यमाकर्ण्यासुरराट्ततः सक्रोधः प्राह दैत्याना मधिपन्धूम्रलोचनम्। हे धूम्रलोचनाशुत्वं स्वसैन्यपरिवारितः केशाकर्षणविह्वलां तत्परित्राणदः कश्चिद्यदिवो तिष्ठते परः सहन्तव्यो मरोवापि यक्षो गन्धर्व एव वा। ऋषिरुवाच तेनाज्ञप्तस्ततः शीघ्रं स दैत्यो धूम्रलोचनः वृतषष्ट्या सहस्राणामसुराणां द्रुतैययौ। स दृष्ट्वा तां ततो देवीं तुहिनाचलसंस्थिताम् जगादोचैः प्रयाहीति मूलं शुम्भनिशुम्भयोः न चेत् प्रीत्याद्य भवति मद्भर्तारमुपैष्यति ततो बलान्नयाम्येष केशाकर्षणविह्वलाम्। देव्युवाच दैत्येश्वरेण प्रहितो बलवान् बलसंवृतः बलान्नयसि मामेवन्ततः किं ते करोम्यहम्। ऋषिरुवाच इत्युक्तस्तोभ्यधावत्तामसुरो धूम्रलोचनः हुङ्कारेणैव तं भस्म सा चकाराम्बिका ततः अथ क्रुद्धं महासैन्यमसुराणां तथाम्बिका ववर्षसायकैस्तीक्ष्णैस्तथा शक्तिपरश्वधैः ततो धुतसटः कोपात् कृत्वा नादं सुभैरवं पपातासुरसेनायां सिंहो देव्या स्ववाहन कांश्चित्करप्रहारेण दैत्यानासीन चा आक्रम्य चाधरीणान्यान् स जघान महासुरान् केषाय चित्पाटयामास नखैः कोष्ठानि केसरि तथा तलप्रहारेण शिरांसि कृतवान् पृथक् विच्छिन्नबाहुशिरसक् कृतास्तेन तथा परे पपौ च रुधिरं कोष्ठादन्येषान्धुतकेसरः क्षणेन तद्बलं सर्वं क्षयन्नीतं महात्मना तेन केसरिणा देव्या वाहनेनातिकोऽपि न श्रुत्वा तमसुरं देव्या निहतं धूम्रलोचनं बलैचक्षयितं कृत्स्नं देवी केसरिणा ततः चुकोपदैत्याधिपतिशुम्भः प्रस्फुरिताधरः आज्ञापयामास च तौ चण्डमुण्डौ महासुरौ हे चण्ड हे मुण्डबलैर्बहुभिः परिवारितौ तत्र गच्छत गत्वा च सा समानीयताल्लघु केशेष्वाकृष्य बद्ध्वा वाय दिवसंशयो युधि तदाशेषायुधै सर्वै रसुरैर्विनिहन्यताम् तस्यां हतायां दुष्टायां सिंहे च विनिपातिते शीघ्रमागम्यतां बद्ध्वा गृहीत्वा तामथाम्बिकाम् इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवी माहात्म्ये शुम्भनिशुम्भसेनानी धूम्रलोचनवधो नाम षष्ठोऽध्यायः।